अभिप्रवस्वराधसमिन्द्रमर्चयथाविदे यो जरिद्रभ्यो मघवा पुरोवसः सहस्रेणैव शिक्षति शतानीके वप्रजिगाति धृष्टजाहन्ति वृत्राणि दाशुषे गिरेरिव प्ररसा अस्य पिन्विरे दत्राणि पुरभोजसः आत्मा सुदास इन्दवोमदाय इन्द्रगिर्वणः आपो न वज्रण्णन् भोग्या अंसरः प्रणन्ति शोरराधसे अनेहसम् प्रतरुणम् विवक्षणम् मध्वस्वादिष्ठमीम् विव आजथा मन्दसा नः किरासि नः प्रक्षुद्रे पद्मना धृषत आनस्ता ममोपद्रवध्ययानो अश्वो न सोदृभिः यन्ते स्वधावन् स्वदजन्ति धेनव इन्द्रकण्वेषु रातजाः उग्रन्न वीरन्नमसोपसेदिमभिभोतिमक्षितावसम् उद्रेव वज्रन्न वदो न सिञ्चते क्षरन्तेन्द्रधीतजाः यद्धनो नै यद्वा यज्ञे यद्वा पृथिव्यामधे अतो नो यज्ञमाशुभर्महेमत उग्र उग्रेभिरागहे अजिरासोहरयोजेत आशवोपाता इव प्रसक्षिणाः येभिरवत्यम् मनुषः परीजसे येभिरविश्वाम् स्वर्दृशे एतावदस्त ईमः इन्द्रसुम्नस्य गोमतः यथा प्रावो मघवन्मेध्यादिधिम् यथा नीपादिधिन्दने यथा कण्वे मघवन्द्रसदस्य व्यथा पक्षे दशौरज यथा गोशरे असनोररजिष्वरेन्द्रगो मध्यरण्यवत।